व्रतं दिव्यं यथा विधिकृतं मया दीपज्वालनं करिष्यामि यथोक्तफलकाम्यया लोकपालाग्रहानागा यक्षराक्षसकिन्नराः दीपं गृहाण विधातव्ये यायं भक्तसाक्षिणः नमो नमोऽस्तु ते दिनेशाय सप्ताश्वाय विवस्वते ज्वालादीपं गृहाणे मां रक्ष रक्ष सुरेश्वर प्रज्वालिने दीपकर्माणि सानुकम्प्या विघ्नोपध्याताय गणयेताः शीघ्रं समागच्छतु लोकपालाः शक्त्यायुताः सायुधवाहनाश्च वेद्यो वेदिः समाप्यते बर्हिषा बहिरिन्द्रियं योपेन यूय आप्यायते प्रणेतो प्रज्वाल्य दीपरग्निना पुण्यशीलनमस्तुभ्यं नृणां त्वं पुण्यदः सदा कार्तीकवर्तपुण्येन त्राहि मां हरिवल्लभा सुशीलस्त्वरि महाभाग सर्वदा त्वं हरिप्रिया दीपं गृहाण मे नित्यं कुरु पापक्षयं मम जयरूपो विष्णुभक्ता विष्णुः प्रतिकरस्तदा नारायणस्य सानिध्यं शाश्वतं चैव माम्नया द्वारपालश्च विष्णोस्त्वं केशवस्य प्रियः सदा कार्तीकदीपपुण्येन विजयं देहि मे प्रभो शतयज्ञसुरारिघ्न सहस्राक्षपुरन्धर दीपं गृहाण देवेश सन्निदेहि नमोऽस्तु ते महेन्द्रानुज गोविन्द गोविप्रपरिपालक यज्ञेश यज्ञपुरुषत्वं मां पालय पालय संसारदुस्तराम्बोधि पाठपापणकारक प्रसीद भगवन् मह्यं व्रतस्य फलमस्तु ते।